ब्रह्मानंदम् परमसुखदम् कैवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् एकं नित्यं विमलमचलं सर्वदा साक्षीभूतं भावातीतं त्रिगुणरहितं सद्गुरुं नमामि हरिप्रसादं नमामि हरिप्रसादं नमामि हरिप्रसादं।